एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रधानमन्त्री केपी शर्मा ओली देशस्य सर्वाणि राजनीतिक दलानि पक्षांश स्वस्य असहमतिः मर्यादिततया व्यवस्थिततया विधिसम्मत रूपेण च अग्रे वर्धापयितुम् तिक्ततायाः व्याकुलतायाः विभाजनस्य च गतिविधितो मुक्ता भवितुञ्च निरुणद्धि प्रधानमन्त्री ओली ह्य राष्ट्रस्य नाम्नि सम्बोधयन् अगदत् सर्वान् विवादान् स्थगयित्वा निर्वाचनस्य माध्यमेन राष्ट्रं गतिशीलं विधातुम् आवश्यकमस्ति प्रधानमन्त्री ओली निर्वाचनस्य सफलतया सम्पादनाय सर्वाणि दलानि सर्वकारे सहभागितायै आह्वयत् प्रधानमन्त्री ओली जनतायाः जीवनरक्षा सर्वकारस्य प्रथमा प्राथमिकता अस्ति इति कारणेन सर्वकारेण क्रियान्वितायाः निषेधाज्ञायाः स्वास्थ्य मापदण्डानां च पालनाय सर्वान् आह्वयत् प्रधानमन्त्री ओली अवासता कोविड महामार्याः निरोधनाय टीकाकरणस्य आवश्यकता स्थिति हेतोः गृहीत टीकाकरण प्रथम मात्राणां नागरिकाणां कृते द्वितीय मात्रायाः टीकाकरणस्य व्यवस्था यथा कथञ्चित् अपि विधास्यते सर्ववयस्केभ्यः नागरिकेभ्यः टीकाकरणं विधास्यते च प्रधानमन्त्री ओली अवोचत् समृद्ध नेपालस्य कृते कृषि आधुनिकीकरणं व्यावसायिकीकरणं च विधाय उद्योगेन सेवया च सह समन्वयं कृत्वा अग्रे वर्धाप्यते प्रधानमन्त्री ओली आगामिनि आर्थिक वर्षे विधास्यमानानां कार्याणां नीति कार्यक्रमान् प्रस्तूय एतेषाम् आधारेणैव अर्थमन्त्रिणा स्वस्य आयव्ययकं प्रस्तूयते इति अज्ञापयत् अद्य चतुर्दश गणतन्त्र दिवसो वर्तते कोरोना प्रसरणस्य निषेधाज्ञायाश्च कारणेन एतस्मिन् वर्षे स्वास्थ्य मापदण्डान् परिपाल्य वैद्युत श्रव्यदृश्य प्रविधिर्माध्यमेन दिवसोऽयं समायोज्यमानोऽस्ति उपलक्ष्यस्मिन् शुभकामना सन्देशं ददत्या राष्ट्रपतिना विद्यादेवी भण्डारिणा संविधानेन परिकल्पितस्य समाजवादोन्मुखस्य राष्ट्रियार्थतन्त्रस्य स्थापनायै गणतन्त्र दिवसेन सर्वेभ्यः अतिरिक्ता उत्प्रेरणा प्रदीयते इति विश्वास व्यक्तोऽस्ति राष्ट्रपतिना भण्डारिणा सन्देशे संविधानेन मौलिकाधिकाराणां रूपेण जनतायाः आधारभूताधिकाराणां विहित सुनिश्चय सन्दर्भे एतेषां प्रभावकारी क्रियान्वयन पूर्वकं विश्वव्यापि महामार्याः कोविड उनविंशतेः संक्रमणस्य पुनः तीव्रीभवनस्य कारणात् एतस्य नियन्त्रणाय नेपाल सर्वकारेण विभिन्नेषु नगरेषु जनपदेषु च क्रियान्वितायाः निषेधाज्ञायाः नियमं परिपाल्य जनतायाः विजयप्राप्तेः दिवसस्य रूपेण गणतन्त्र दिवसं समायोजयितुम् आहूतं वर्तते उपराष्ट्रपतिना नन्दबहादुर पुन इत्यनेन प्रदत्ते सन्देशे पश्चात्तन समये उत्पन्नायाः राजनैतिक समस्यायाः यथार्थ समाधानं भविष्यति इति आत्मनः आशावादितास्ति इत्युक्तं वर्तते राजनीतिक समस्यायाः अवधौ अपि सर्वकार राजनैतिक दलानि सर्वे पक्षाश्च कोरोना विषाणोः द्वितीय लहर्या नियन्त्रणाय गभीरेण संक्रान्तानां जनानां प्रभावकारिणी उपचारे एकभूय सन्नद्धतायै च उपराष्ट्रपतिना सन्देशे अनुरुद्धाः सन्ति उपलक्ष्यस्मिन् सन्देशं ददता सभामुखेन अग्निप्रसाद सापकोटा विदेन संघीय लोकतान्त्रिक गणतन्त्रस्य संस्थागत विकासाय इतोपि सुदृढा राष्ट्रियैकता आवश्यकी अस्ति इति भाषितं वर्तते मन्त्रिपरिषद पूर्वाध्यक्षेण खिलराज रेग्मिणा अवसरेऽस्मिन् प्रदत्ते सन्देशे राजनीतिक विवादस्य सदैव न्यायालयस्य प्राङ्गणे प्रापणेन तत्रत्येन सैन्य क्रीडावत् दृश्येन च लोकतान्त्रिक गणतन्त्रस्य राजनीतिकाभ्यास अनाथतां प्राप्तोऽस्तीति अनुभूतमिति उक्तं वर्तते राष्ट्रपतिना विद्यादेवी भण्डारिणा मन्त्रिपरिषद परामर्शे चतुर्दश गणतन्त्र दिवसस्य अवसरे दिल्ली सम्बा लिम्बु इत्यनेन सहितानां त्रिंशदधिक शतचतुष्टय बन्दिभ्यः अवशिष्टं कारावासनं निवार्य क्षमादानं प्रदत्तमस्ति राष्ट्रपतिना नेपालस्य संविधानस्य 67+200 धारायाः अनुसारेण 74+200 वैक्रमादापराध दण्डन क्रियान्वयनाध्यादेशस्य 37 प्रकरण प्रवृत्ति विभिन्नानां विधीनां सर्वोच्च न्यायालयेन गत विक्रमाब्दस्य श्रावण मासस्य 29 दिवसे दत्तस्य परमादेशस्य च आधारेण क्षमादानमेत प्रदत्तमिति राष्ट्रपतेः कार्यालयस्य सहायक प्रवक्त्रा केशव प्रसाद घिमिरे विधेन प्रकाशितायं विज्ञप्तौ ज्ञापितं वर्तते सर्वकारेण आगामिनः आर्थिक वर्षस्य आयव्ययकम् अद्य अपराह्ने सार्वजनिक क्रियते संसदः विघटनस्य अवस्थायं सर्वकारेण अध्यादेशस्य माध्यमेन अद्य अपराह्नस्य 4 वादने प्रधानमन्त्री कार्यालये विशेष कार्यक्रमम् आयोज्य आयव्ययकम् सार्वजनिक क्रियमाणम अस्तिति अर्थ मन्त्रालयो ज्ञापयति। अर्थ मन्त्रालयेन आयव्ययक सार्वजनिककरण सम्बद्धं सम्पूर्णं पूर्व कार्यं प्रपूरितम् अस्तिति ज्ञापितं वर्तते। अत्रान्तरे अर्थमन्त्री विष्णुप्रसाद पौडेलः कथयति, सततं गतिशीलतां प्राप्ते नेपालस्य अर्थतन्त्रे कोरोना विषाणो द्वितीय लहरिया अतिरिक्त समावय संकटश्च वर्धापितौ स्तः। वर्तमानार्थिक वर्षस्य आर्थिक सर्वेक्षणं सार्वजनिक संस्थानानां वार्षिक प्रतिवेदनं च गतदिने अर्थ मन्त्रालये सार्वजनिक कुर्वन् अर्थमन्त्री पौडेलः अवासत। नेपालस्य आर्थिक वृद्ध्यंकमान वर्तमानार्थिक वर्षे 0.1% अनुमितः सन्नपि अनुमानितस्य आर्थिक वृद्ध्यंकमानस्य प्राप्तेः कार्यं समाभयपूर्णं वर्तते। अर्थमन्त्री पौडेलः कोरोना विषाणो कारणेन गतार्थिक वर्षे कर्णाली सुदूर पश्चिम प्रदेशौ विहाय सर्वेषां प्रदेशानाम् आर्थिक वृद्धौ ऋणात्मिक्यां सत्यमपि वर्तमानार्थिक वर्षे सर्वेषां प्रदेशानाम् आर्थिक वृद्ध्यंकमानः प्रतिशतं 0.5% उच्चैः अनुमितोऽस्तीति अवोचत। सर्वोच्च न्यायालयस्य सांविधानिक न्यायपीठे प्रतिनिधिसभायाः विघटनस्य विरुद्धे पञ्जीकारितानां निवेदनानां श्रवणं ह्यः प्रारब्धमस्ति। सांविधानिक न्यायपीठे प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जबराविदस्य, न्यायाधीशानां दीपक कुमार कार्की, डाक्टर आनन्दमोहन भट्टराई, तेजबहादुर केसी, बम कुमार श्रेष्ठश्च इत्येतेषां च न्यायपीठं ह्यः संघटय्य विमर्शनं प्रारब्धमस्ति। सांविधानिक न्यायपीठे पञ्जीकारितानां 30 आदेशाभियाचन निवेदनानां श्रवणं विलोकनस्य क्रमे एव संस्थाप्य स्वरविवासराय निर्धारितमस्ति। पर्वत जनपद प्रशासन कार्यालयेन वृष्टेः कारणेन भूस्खलनेन जल विप्लवानां संकटस्य सम्भावनायाः सत्वात् कालीगण्डकी नद्याः तटवर्तिनो जनाः सुरक्षिताः भवितुम् आहूताः सन्ति। कालीगण्डकी नद्यां गत बृहस्पतिवासरात् जलप्रवाह वर्धनस्य क्रमे सत्वात् तटीय क्षेत्रस्य नागरिकाः सावधानाः भवितुम् एवम् अनुरुद्धाः सन्ति। नेपाले ह्य अतिरिक्ता 9,141 जना कोरोना संक्रमणात् मुक्ता सन्ति। ह्य आराष्टम अतिरिक्तेष् 6,150 जनेष् कोरोना संक्रमणं पुष्टिभूतं वर्तते। कोरोना संक्रमणेन ह्य अतिरिक्ता 96 जना मृता। नेपाले ह्यस्तनावधि कोरोना विषाणो लक्ष्यं 13,94,73 सक्रिय संक्रान्ता जना सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। इति समाचारः।